हरि ओम। हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह तामावह जातवेदो लक्ष्मीं मनवगामिनीं यस्यां हिरण्यं विन्देयं गामस्वं पुरुषानहम् अश्वपूर्वां रथमच्छां हस्तिनादप्रबोधिनीं श्रियं देवीमुपक्वये श्रीर्माधेवीजुषतां कांसोऽस्मितां हिरण्यप्राकाराम् आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपक्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं ईं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोऽधियातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु मां देवसख कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिं ददातु मे क्षुप्तिभासामलां ज्येष्ठाम् अलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वान्निर्नुद मे गृहात् गन्धद्वारान्धराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरीगुं सर्वभूतानां तामिहोपक्वये श्रियं मनसः काममाकोतिं वाचः सत्यमसीमहि पशूनागं रूपमन्नस्य महि श्रीश्रयतां यशः कर्दमेन प्रजाभूता मयि सम्भवकर्दम श्रियं वासय मे कुले मातरं पद्ममालिनीम् आपसृजन्तः स्निग्धानि चिक्लेतवस मे गृहे निज देवीं मातरं श्रियं वासय मे कुले आद्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावः सुवर्णाम् हेमभालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो भवावह तामावह जातवेदो लक्ष्मीम् वनपगामिनीम् यस्याम् हिरण्यम् प्रभोतङ्गावो दास्यो स्वानो विन्देहम् पुरुषानहम्।